इन्द्रतुभ्यम् रक्षानुक्षरत्रम् ब्रह्मणामन्यतद्योः त्वम् सवसा जघन्वान् शिरसिन्धोम् गृहीणा जग्रसानान् तवद्विषो जनीमन्त्रेज दद्यौरे जद्भूमिर्भियसा स्वस्य मन्योः घायन्त शुभ्वा अपर्वदास आर्दम् धन्वानि शरयम् तापाः भिरग्निम् सवसा वज्रविष्णन्वा विष्णन्वानः सहसा नभोजाः मधीर्वृत्तम् वज्रेण मन्दसानः सरन्नापोजवसा हतवृष्णीः सुवीरस्तेजनितामन्यदद्योरिन्द्रस्य कर्ता स्वपस्तमोऽभूत् ययीम् जजानः स्वर्यम् सुभज्रमनवच्छुतम् सदसो न भूम ययेकयच्छामयाधिप्रभूमा राजा कृष्णीनाम् पूरहूत इन्द्राः सत्यमे नमन विश्वे मदन्ति राजिम् देवस्य गृणतो मघो नाः सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः सत्राभवो वसुपतिर्वसूनाम् दत्ते विश्वा अधिता इन्द्रकृष्टीः त्वमध प्रथमम् जायमानो मे विश्वा अधिता इन्द्रकृष्टीः त्वम् प्रति प्रपद आशया नम हिंवज्रे नमघवन्विदृष्टः सत्राहनम् दाधृणिम् त्वम् रवीन्द्रम् महामापानम् वृषभम् सुभद्रम् हन्तायो भृत्नम् सनीतो तवाजम् दाता मघानि मघवाः सुराधाः अयम् मृतश्चादयते समीतीर्य आजिषु मघवाः शृण्वलेकाः अयम् वाजम् भरतियम् सरोष्यस्य प्रियासः सख्ये स्याम अजम् शृण्वे अधजयम् नुरग्नन्नयमुत प्रहृणते युधागाः यदा सत्यम् क्रीणुते मन्यमिन्द्रो विश्वम् दृढम् भजधये जस्मात् समिन्द्रोगादयः संहिरण्यालमस्विजा मघवायोः पूर्वीः एभिर्नृभिर्नृता मोहस्य साकैराजो विभक्ता सम्भरश्चव स्वाः कियत्स्विन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जान यो अस्य सुष्णुम् मुहुकैर्यक्ति वातो न जूतस्तनयद्भिरभ्रैः क्षियन्तम् त्वमक्षीयन्तम् कृणोति यत्ति रेणुम् मघवाः समूहम् जलरसनीवान्यभज्यौ ऋतस्तोतारम् मघवावसौधात् अयम् चक्रमेष नत्सूर्यस्यन्येत संवेदमत्सृमाणम् आकृष्णयीम् जुगुरानो दीघर्ति त्वजो बुद्धेरजसो अस्य यो नौ अधिज्ञाम् यजमानो न होताः गव्यन्त इन्द्रम् सख्याय विप्रा अश्वायन्तो वृषाणम् वाजयन्तः जनीयन्तो जनितामक्षीतो दिवाच्यावयामो वतेन कोशम् त्रातानो बोधितदृशान आभिराभिख्यातावद्भिदा सोम्यानाम् सखा पिता पितृदापितॄणाम् कर्ते मुलोकमूसदेव योधाः सखीयताम पिता बोधि सखा कृणानयम् दस्तुपतेव योधाः वयम् ख्याते च कृमासबाध आभिः समेभिर्महयम् त इन्द्र श्रुत इन्द्रो मघवायद्ध वृत्रा भूरीण्येको अप्रतिनिहन्ति अस्य प्रियोजरिनायस्य धर्मन्नकिर्देवा बालयम् तेन वर्ताः एवा न इन्द्रो मघवा विरप्सीकरः सत्याचर्षणी धृता नर्वा सोम्राजनाजनुषाम् धेह्यस्मे अधिश्रवो माहीनम् यज्जरित्रे नोश्रुत इन्द्रनो गृणानयिषम् चरित्रे नद्यो न पीवे अकारिते हरि ब्रह्मणव्यम् धियास्यामरच्छ सदा